एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। सर्वकारेण पाथिभरा केबलकार यान निर्माणस्य विषयमाधृत्य आन्दोलनरतान् जनान् शान्तिपूर्ण वार्तायै अनुरुद्धमस्ति। राष्ट्रियसभायाः ह्यस्तनोपवेशस्य शून्ये आकस्मिके विशेषे च समयेषु सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री रमेश लेखकः पाथिभरा केबलकार यान निर्माण विषये आन्दोलनरतान् जनान् शान्तिपूर्णायै वार्तायै अनुरुणत्। सर्वकारेण सिंहप्रासाद परिसरे विद्यमानानां भवनानां विपद संकट मूल्यांकनाय एकां समितिं संघटय्य कार्यम् अग्रे वर्धितमस्तीति असूचयत्। उपवेशे राष्ट्रियसभायाः सांसदाः प्राकृतिक विपद व्यवस्थापने सर्वकारेण विहितस्य पूर्वकार्यस्य पाथिभरा केबलकार यान निर्माणस्य च विषययोः अन्येषु सामयिक विषयेषु च सर्वकारस्य ध्यानम् आकृष्टवन्तः। नेपाल विधि व्यवसायी परिषदः एतद् विक्रमवर्षीयं द्वितीय संशोधन विधेयकं राष्ट्रियसभातः सर्वसम्मत्या पारिति कृतमस्ति। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया विधायन व्यवस्थापन समितेः प्रतिवेदनेन सहितं प्रस्तावममुं प्रस्तुतवान् आसीत्। उपवेशे विधेयकमाधृत्य उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री चौरसिया सांसदैः उत्थापिताः विषयाः विधेयके समावेक्ष्यन्ते इति अभाषत। तत्पूर्वं प्रतिनिधिसभातः ससन्देशं प्राप्तं कोषागारापराधदण्ड सम्बद्धं गतविक्रमवर्षीयं द्वितीय संशोधन विधेयकमाधृत्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः विधेयकमिदं प्रास्तौत्। राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः विधेयकमाधृत्य संशोधन प्रस्तावं प्रस्तोतुम् इच्छुकैः सांसदैः राष्ट्रियसभा अन्तर्गतायां विधेयकशाखायां संशोधन प्रस्तावः पञ्जीकर्तुं शक्यते इति असूचयत्। राष्ट्रियसभायाः अपरोपवेशः असैव फाल्गुनमासस्य द्वाविंशे दिवसे दिवासपादैकवादने वस्ता। नेकपा एमाले दलस्य सचिवालयोपवेशेन पाथिभरा क्षेत्रे केबलकार निर्माणस्य विषये सम्बद्धै पक्षैस्सह विमृश्य विवादस्य समाधानाय सम्बद्धस्य पक्षस्य ध्यानाकर्षणं विहितमस्ति। ह्यस्तनोपवेशेन स्थानीयै जनप्रतिनिधिभिः प्रशासनेन सम्बद्धै पक्षैस्सह विमृश्य केबलकार निर्माणस्य विषये वातावरणं सहजं विधातुं सम्बद्धस्य पक्षस्य ध्यानाकर्षणं कर्तुं च निर्णयो विहितोऽस्तीति दलस्य महासचिवः शंकर पोखरेलः अज्ञापयत्। एवमेव सचिवालयोपवेशेन जनवर्गीय संघटनानां केन्द्रीय समितेः पदाधिकारिणां संरचनां लघ्वीं विधातुं निर्णीतमस्ति। नेकपा एमाले दलस्य जनसंघटनेषु केन्द्रीय समितेः सचिवालयस्य स्थायी समितेश्च अभ्यासे जायमाने अतः परं स्थायी समितेः संरचनां निरसयितुं निर्णीतमस्तीति महासचिवः पोखरेलः असूचयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति यूनां सर्वविध विकासाय सहयोगं कर्तुं सर्वकारः प्रतिबद्धो वर्तते। टुणीखेलवर्तिनि सैनिक मञ्चे ह्य आयोजिते एनसीसी नाम्नो राष्ट्रिय सेवा दलस्य प्रशिक्षणस्य दीक्षान्त कार्यक्रमे प्रधानमन्त्री ओली सर्वोत्कृष्टस्य समाजस्य निर्माणाय राष्ट्रस्य कृते अनुशासितानां यूनां कुशल नेतृत्वस्य आवश्यकता अस्तीति प्रावोचत्। प्रधानमन्त्री ओली उच्चै मनोबलं नैतिकम् आचरणञ्च सन्धार्य समग्र देश विकासाय अग्रे सर्तुं यूनः अनुरुणत्। बांके जनपद अस्थिपाद श्रोथ रोगस्य उच्चै संकटे वर्तते। देशस्य अन्येषु जनपदेषु अस्थिपाद श्रोथ रोग विरोधिनि औषधाधानाभियाने स्मिन् सफले सम्भूते। बांके जनपदे त्रयोदशवारं औषधस्य सेवनस्य पश्चादपि अस्थिपाद श्रोथ रोगस्य संक्रमणस्य दर्शनानन्तरं पुनः चतुर्दशवारं औषधसेवन कार्यक्रमः आयोज्यमानोऽस्ति। स्वास्थ्य जनसंख्या मंत्री प्रदीप पौडेल निगदति चिकित्सक परामृष्टानि औषधानि न सन्तीति उक्त्वा उन्मुक्ते प्राप्ते सौविध्यम् अतः परम् सर्वकारीय चिकित्सालयेभ्यो न भवति। इलाम चिकित्सालयस्य ह्य अनुगमनस्य क्रमे मन्त्री पौडेलः स्वास्थ्य सुरक्षण समित्या निर्धारितेषु चिकित्सालयेषु सर्वविधै औषधै अनिवार्यतया भाव्यमिति प्रावोचत्। मन्त्री पौडेलः स्वास्थ्य सुरक्षण समित्या 98 औषधप्रकारकाणि निश्चितानि सन्ति, तानि अनिवार्यतया स्थापयितुं निरदिशत्। तदवसरे जीवन सुरक्षण समिति कतिषुचित् व्यवस्थापनेषु समस्यायां सत्याम् तत्र सुधारः करिष्यते इति असौ प्रतिबद्धताम् व्यक्तवान्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भाषते उत्पीडित समुदायस्य अधिकारं परिचयं च संरक्षितुं माओवादी केन्द्रेण अधिक त्यागो विहितोऽस्ति। धनुषा जनपदस्य कमलनगरपालिकायाः तृतीयवडा क्षेत्रे ह्य आयोजिते हुतात्म परिवाराणां सम्मान कार्यक्रमे अध्यक्षः प्रचण्डः मधेशस्य जनतायाः मुक्तये बलिदानं विहितवतः माओवादी केन्द्रस्य विषये अनेकविधानां भ्रमाणां सर्जनस्य प्रयासु विधीयमानोऽस्तीति अगदत्। कोशी प्रदेशस्य मुख्यमन्त्री हिक्मत कुमार कार्की निगदति प्रदेशे मैथिलीभाषां लिम्बुभाषां सर्वकारीय व्यावहारिकीं भाषां विधातुं सर्वकारः गभीरो वर्तते। सार्वजनिक सेवा प्रसारण नेपाल रेडियो नेपालेन ह्य आयोजिते रेडियो नेपाले राष्ट्रभाषायाः प्रयोग सम्बद्धे कार्यक्रमे मुख्यमन्त्री कार्की भाषायाः प्रयोगस्य विषये आवश्यकाय विमर्शनाय विधिनिर्माणाय लिपीनाम् अन्वेषणाय विकासाय च सर्वकारः प्रतिबद्धोऽस्तीति अगदत्। कार्यक्रमे प्रदेशस्य अन्तर्विषय विधिमन्त्री रेवती रमण भण्डारी, सार्वजनिक सेवा प्रसारण नेपालस्य अध्यक्षः डाक्टर महेन्द्र विष्टः, सार्वजनिक सेवा प्रसारण नेपाल संचालक समिति सदस्यः डाक्टर भूमिराज चापागाई च धारणां व्यक्तवन्तः। अद्य मार्च मासस्य तृतीयो दिवसः वन्यजन्तु दिवसः। वन्यजन्तुना मानवानां च वासस्थानस्य पृथ्व्याः अतिदोहनं रोद्धुम् अस्याः जैविक विविधतायाः पर्यावरणीय परिस्थितिकी प्रणाल्याश्च संरक्षणाय बलं दत्त्वा वन्यजन्तूनां संरक्षणाय वित्तं मानव पृथिव्योः निवेशनं चेति समाघोषेण आसंसारं दिवसोऽयं समायोज्यमानं वर्तते। संयुक्तराष्ट्रसंघस्य 68वीं महासभया त्रयोदशोत्तर 2000 ख्रीष्टवर्षस्य डिसेम्बर मासस्य 20 दिवसे संकटग्रस्तानां वन्यजन्तूनां वनस्पतीनां च विषये मानवजाते सावधानीकरणस्य उद्देश्येन मार्च मासस्य त्रयोदशं दिवसं वन्यजन्तु दिवसत्वेन आयोजयितुम् उद्घुष्टम् आसीत्। वसतीनाम् अवकरस्य साक्षात् नदी खोलिकासु क्षेपणस्य अपेक्षया प्रशोधनं विधाय स्वच्छ जलस्य उपयोगत्वेन पाल्पा जनपदे निदर्शन परियोजना संचालिता अस्ति। जनपदस्य सामाजिक क्षेत्रे क्रियाशीलया तान्सेनवर्तिन्या रोटरी क्लब संस्थया दूषितं जलं प्रशुद्ध्य प्रयोगे आनेतुं दूषित जलोपचार UMS नाम्नि परियोजना संचालिता अस्ति। संस्थया आसन्न कोटि चतुष्टयस्य 22 लक्ष्याणां च रूप्यकाणां निवेशनेन निर्मितायाः परियोजनायाः युनाइटेड मिशन चिकित्सालयाय हस्तान्तरणं विहितमस्ति। नैरन्तर्यस्य वृष्टेः हिमपातस्य च पश्चात् अवरुद्ध नाग्म गमगढ़ी मार्गः संचालितोऽस्ति। मार्गेऽस्मिन् भुलभुले स्थाने सप्तमो स्थाने च भूस्खलनेन हिमस्य एकीभवनात् दिनद्वयात् मार्गोऽसौ अवरुद्ध आसीत् इति समाचारः।